स्थितिलयजनिकार्तं विश्वोल्लासन क्रीडा परम् श्री विश्वकर्मं परब्रह्मं नित्यं स्मरामिं तं वरदम् हृदि स्थितं सर्वाधिष्ठानम् अहम् अस्मित्येनुज्ञातञ्च भवत्यमृतो नरस्तदा नित्यं स्मरामि तं वरदम्।